एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा प्रतिनिधि सभायाः ह्यस्तनोपवेशि डेंगू रोगस्य नियन्त्रण निरोधनयोः कृते सार्वजनिक महत्वस्य प्रस्तावः प्रस्तुतो वर्तते। उपवेशि कुसुमदेवी थापा, सपना राजभण्डारी, सीता मिजार, लीलादेवी बुखिम लिम्बु, चेती सांसदानां समर्थनेन सांसदः प्रतिमा गौतमः अत्यावश्यक सार्वजनिक महत्वस्य प्रस्तावं प्रस्तौत। अत्यावश्यक सार्वजनिक महत्वस्य प्रस्तावं प्रस्तुवन्ती सांसदः प्रतिमा गौतमः आराष्ट्रं डेंगू रोगस्य प्रकोपः तीव्ररूपेण प्रस्रियमाणोऽस्ति, गभीरेण जनस्वास्थ्येषु संकटः उत्पन्नश्च वर्तते इति अवदत्। सांसदः प्रस्तावम् आधृत्य सम्बुद्धे विमर्शने डेंगू रोगस्य संक्रमणं त्रिसप्तत्यां जनपदेषु प्रसृतमस्ति, स्तरस्त्रयस्यैव सर्वकारैः उच्च सक्रियः संवेदनशीलाश्च भूत्वा संक्रमणस्य निरोधन नियन्त्रणयोः कार्यक्रमाः सञ्चालनीयाः इति बलं प्रादुः। अत्यावश्यक सार्वजनिक महत्वस्य प्रस्तावम् आधृत्य विहितस्य विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् उत्तरयन् स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः डेंगू रोगस्य नियन्त्रणाय महामारी रोग नियन्त्रण महाशाखायाः नेतृत्वे कार्यदलं संघटय सर्वेषु प्रदेशेषु स्थानीय स्तरेषु च द्रुतरूपेण प्रतिकार्याय समूह परिचालितोऽस्तीति अवदत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशेन एतद्विक्रमवर्षीयं सुरक्षित व्यवसाय प्रथम संशोधन विधेयकमाधृत्य विचारितामिति प्रस्तावः स्वीकृतो वर्तते। प्रस्तावसौ अर्थमन्त्रिणा विष्णु पौडेलेन प्रस्तुतः आसीत्। तत्पूर्वम् उपवेशे गृहमन्त्री रमेश लेखकः संसदि सांसदेनैव मध्यस्थानोचित लाभग्राहिभ्यो जनेभ्य उत्कोचवित्तं प्रदत्तम् इति उक्त प्रकरणस्य तत्कालम् अनुसन्धानाय आवश्यकं निर्देशनं प्रदत्तमस्ति इति असूचयत्। उपवेशे उत्थापितान् प्रश्नान् उत्तरयन् गृहमन्त्री लेखकः पूर्वभूमि सुधार सहायक मन्त्रिणः रामचन्द्र रायस्य हत्यायां संलग्नानां व्यक्तिनाम् अन्वेषणाय अनुसन्धानाय च केन्द्रीयानुसन्धान निकायस्य प्राविधिक जनशक्त्या सहितेन समूहेन सूक्ष्मरूपेण कार्यं विधीयमानमस्ति इति असूचयत्। तत्पूर्वं प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदाः सर्वकारेण व्ययं न्यूनीकृत्य आयव्ययकम् उत्पादनेन वृत्त्युपार्जनेन च सह संयोजनीयं सार्वजनिक प्रशासनं सबलं विधाय भ्रष्टाचारमुक्तं देशं निर्मातुं सर्वकारस्य ध्यानम् आकृष्टवन्तः। प्रतिनिधिसभायाः अपरोपवेशः अस्यैव श्रावणस्य त्रयोदशे दिवसे रविवासरे दिवा एकवादने वस्ता। प्रधानमन्त्रिणा केपी शर्मणा ओलिना संक्रमण कालिक न्याय सम्बद्धे विधेयके सहमत्यर्थं संघटितेन कार्यदलेन सह विमृष्टं वर्तते। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य सम्भूते विमर्शने प्रधानमन्त्री ओली कार्यदलस्तरे सम्भूतस्य विमर्शनस्य विषये जिज्ञासमानः शीघ्रं विधेयकं निष्कर्षं प्रापणीयम् इति अभाषत। नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देउवाभिदस्य सहभागितायां सम्भूते विमर्शने प्रधानमन्त्री ओली यथासम्भवं विधेयके सहमतिं धर्तुं कार्यदलं निरादिशदिति नेकपा एमाले दलस्य मुख्य सचेतक पदीयो महेश वर्तौला अज्ञापयत्। विधेयके सहमत्यर्थं कार्यदलेन ह्यस्तनात् दिवसादेव कार्यं समारब्धमस्तीत्यतः शीघ्रमेव सहमतिं धर्तुं प्रयत्यते इति मुख्य सचेतक पदीयो वर्तौला असूचयत। गताषाढमासस्य सप्तदशे दिवसे तात्कालिकस्य प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य नेतृत्वस्य सर्वकारस्य कार्यकाले विधेयके सहमत्यर्थं त्रिसदस्यीया समितिः संघटिता आसीत्। नेपाली कांग्रेस दलस्य रमेश लेखकः, नेकपा एमाले दलस्य महेश वर्तौला, माओवादी केन्द्रस्य जनार्दन शर्मा च कार्यदले सदस्यः सन्ति। वाग्मती प्रदेशस्य मुख्यमन्त्री पदे नेपाली कांग्रेस दलस्य वाग्मती प्रदेशस्य संसदीय दलस्य नेता बहादुर सिंह लामा नियुक्तो वर्तते। वाग्मती प्रदेशस्य प्रमुख यादवचन्द्र शर्मा मुख्यमन्त्री पदे लामा इत्यमुं ह्य नियुक्तवान् अस्ति। नेकपा एमाले दलस्य नेपाली कांग्रेस दलस्य च मध्ये सत्ता सहकार्यस्य कृते धृतायाः सहमतेः अनुसारेण वाग्मती प्रदेशे कांग्रेस संसदीय दलस्य नेतुः लामाभिदस्य नेतृत्वे नूतन सर्वकारस्य संघटना प्रदेश प्रमुखस्य शर्मणः समक्षं ह्य एव स्वत्वं प्रस्तुतमासीत्। मुख्यमन्त्रिणः शपथग्रहणम् अद्य प्रातः एकादशवादने भवतीति प्रदेश प्रमुखस्य कार्यालयेन ज्ञापितं वर्तते। लुम्बिनी प्रदेशस्य नवनियुक्त मुख्यमन्त्री चेतनारायण आचार्य अद्य पदगोपनीयतयो शपथं गृह्णाति। मुचुअलवर्तिनी प्रदेश प्रमुखस्य कार्यालये अद्य प्रात सार्धाष्टवादनाय शपथग्रहणस्य कार्यक्रम निर्धारितोऽस्ति। प्रदेश प्रमुख कार्यालयस्य प्रवक्ता धर्मा अर्याल बेलवासी अज्ञापयत्। नेपाली कांग्रेस दलस्य नेकपा एमाले दलस्य च षट्पञ्चाशत सांसदानां समर्थनेन प्रदेश प्रमुखेण अमिक शेरचन इत्यनेन एमाले संसदीय दलस्य उपनेता आचार्य सोमवासरे मुख्यमन्त्री पदे नियुक्त आसीत्। उप प्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह वदति निर्माण व्यवसायीनाम् उचित याचना प्रति सर्वकार अनुकूलो वर्तते। ह्य मन्त्रालय निर्माण व्यवसायी महासंघस्य अध्यक्षेण रवि सिंहेन सहितेन समूहेन सह सम्भूते मेलने उप प्रधानमन्त्री सिंह आत्मना निर्माण व्यवसायीनाम् समस्या ज्ञाता सन्ति, तासाम् समाधानाय प्रयत्यते इति प्रतिबद्धताम् व्यक्तवान्। गृहमन्त्री रमेश लेखक अध्यागमन सम्बद्धानां विध्यादि नियमानां निर्माणाय सहयोगो विधीयते इति प्रतिबद्धतां व्यनक्ति। ह्य अध्यागमन विभागस्य निरीक्षणानन्तरं गृहमन्त्री लेखक मासाभ्यन्तरे अधिनियमं नियमं कार्यविधिं नियमावलीं च गृहमन्त्रालये प्रस्तोतुं निरदिशत्। गृहमन्त्री लेखक दार्चुला जनपदस्य तिंकर स्थाने मुस्ताङ जनपदस्य कोरोला स्थाने च अध्यागमन कार्यालयस्य स्थापनायै प्रक्रियां अग्रे वर्धयितुं निरदिशत्। गृह सचिव एक नारायण अर्याल पूर्णाय क्षमतायाम् अध्यागमन कार्यालयस्य संचालनाय बलं ददत्। सर्वैरपि सर्वकारीय निकायैः समन्वयं विधाय विभागेन कार्यं करणीयम् इत्यवोचत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ भाषते सर्वकारः पूर्ण स्वतन्त्रस्य मर्यादितस्य च संचारस्य पक्षे वर्तते। राष्ट्रियसभायाः विधायन व्यवस्थापन समितेः ह्यस्तनोपवेशे मन्त्री गुरूङ मीडिया काउन्सिल संस्थां स्वायत्त निकायस्य रूपेण स्थापयितुं विधि निर्मास्यते इत्यभाषत। मन्त्री गुरूङ सर्वकारेण निर्मितेन मीडिया काउन्सिल विधेयकेन संविधानेन प्रत्याभूत स्वतन्त्रतायाः प्रवर्धनं विधास्यते। संविधानेन प्रत्याभूत संचार स्वतन्त्रतायाः प्रवर्धनं विधास्यते इति विश्वासं व्यक्तवान्। उपवेशे सांसदः कृष्णप्रसाद सिटौला, नारायण काजी श्रेष्ठ, भगवती नेउपाने, बेदुराम भूषालश्च पत्रकारिता क्षेत्रस्य नियामक संस्थायाः रूपेण मीडिया काउन्सिल संस्थां संघटयितुं सर्वकारेण निर्मितेन विधेयकेन संचार माध्यमं इतोऽपि व्यवस्थापयितुं दायित्ववाहिनं च विधातुं सहयोगो विधास्यते इति अभाषन्त। धूमाधिक्यात् श्वासावरोधेन जुम्ला जनपदे द्वे महिले मृते स्तः। नवप्रसूतिं तापयितुं प्रज्वालितस्य बन्हे धूमेन श्वासावरोधनात् पाताराशी ग्रामपालिकायाः चतुर्थवडा क्षेत्रस्य एकादश दिवसस्य प्रसूता द्वाविंशति वर्षीया माया लक्ष्मी महतारा, तस्या भगिनी ऊनविंशति वर्षीयाः जुन माया रोकाया च मृते इति प्रहरिणा ज्ञापितमस्ति। चन्दननाथ नगरपालिकायाः कालेखोली स्थाने निवसन्त्यौ ते धूमेन श्वासावरोधनानन्तरं उपचाराय कर्णाली स्वास्थ्य विज्ञान प्रतिष्ठाने प्रापिते आस्ताम्। तत्रैव उपचारस्य क्रमे ते मृते इति प्रहरी नायब परीक्षक छेदीलाल कामती अज्ञापयत्। मदन पुरस्कार गुठी संस्थानेन गत विक्रम वर्षीय मदन पुरस्कारस्य कृते पञ्चकृतयः प्रचिताः सन्ति। गुठी संस्थानेन गत विक्रम वर्षे प्रकाशितेषु चतुरधिक शतत्रय पुस्तकेषु पञ्चकृतयः प्रचित्य सार्वजनिकृताः वर्तन्ते इति समाचारः।